इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। संसदा अधिकरण प्रणाल्यां पारदर्शितायै अधिकरण परिष्कार विधेयकं पारितम्। लोकसभया केरलराज्यस्य केरलम् इति पुनर्नामकरणाय अथ एनसीडीसी विधेयकाय च प्रदत्ता स्वीकृतिः। केन्द्रेण पुनरुक्तं यत् अरुणाचलप्रदेशः भारतस्य अभिन्नमङ्गमस्ति, एतत् शाश्वत सत्यं न केनापि परिवर्तयितुं शक्यम्। पाकसर्वकारेण प्रायोजितस्य आतंकवादस्य उद्घाटनाय विश्वव्यापि प्रदर्शनस्य आह्वानानां मध्ये गुरुवासरात् पीओजेके मध्ये प्रतिषेध प्रदर्शनानि वैश्विकरूपं धारयिष्यन्ति। नासा संस्थया चन्द्राधार कार्यक्रमे इसरो संस्था सहभागित्वेन भवितुम् आमन्त्रिता। अपि च कनाडा ओपन टेनिस प्रतिस्पर्धायां पोलैंड देशस्य इगा स्वीटेक, रशिया देशस्य डायना श्नाइडर इत्येतां पराजित्य उपांत्य चक्रं प्राविशत्। अथ वार्ताः विशदीकृत्य। संसदा अद्य अधिकरण परिष्कार विधेयकं 26,000 पारितम्। राज्यसभया अद्य विधेयकस्यास्यानुमोदनमंगीकृतं यत् लोकसभया पूर्वमेव पारितम् आसीत्। विधिन्याय राज्यमन्त्री अर्जुन राम मेघवालः एतत् विधेयकम् उपस्थापितवान्। अस्य विधेयकस्य मुख्योद्देश्यं तावत् विविधाधिकरणानाम् अध्यक्षानां सदस्यानाञ्च अर्हतासु, नियुक्तौ, सेवानियमेषु तथा अधिकरणानां प्रशासने कार्यप्रणाल्याञ्च दक्षतां, स्वायत्ततां, पारदर्शिताम्, एकरूपताञ्च आनेतुम् अस्ति। चर्चायाः प्रत्युत्तरे सति मेघवालेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्वकारेण 25,000 वर्षे अधिकरणानां युक्तीकरणस्य प्रक्रिया आरब्धा आसीत्। मन्त्रिणा प्रोक्तं यत् अस्मिन् नूतन विधेयके राष्ट्रिय अधिकरण आयोगस्य स्थापनायाः प्रावधानमस्ति, यस्य अध्यक्षता सर्वोच्चन्यायालयस्य पूर्वन्यायाधीशः उत उच्चन्यायालयस्य पूर्वमुख्यन्यायाधीशः करिष्यति। विधेयक पारणात्परं सदने विशेषोल्लेखानां विषयेभ्यः समयः कल्पितः, यस्मिन् विविध सदस्यैः लोकमहत्त्वस्य विषयाः उत्थापिताः। कार्यसमाप्त्यनन्तरं पीठासीनाधिकारिणा सदनस्य कार्याचरणं श्वः प्रातः 11 यावत् स्थगिता। लोकसभया अद्य केरल नाम परिवर्तन विधेयकं पारितम्। अस्मिन् विधेयके संविधानस्य प्रथम अनुसूच्यां राज्यस्य केरल इति नाम परिवर्त्य केरलम् इति कर्तुं प्रावधानमस्ति। अस्य विधेयकस्य विषये भाषमाणः गृहराज्यमन्त्री नित्यानन्दरायः अवदत् यत् गतवर्षे केरल विधानसभया राज्यस्य नाम केरलमिति कर्तुं केन्द्रसर्वकाराय अनुरोधप्रस्तावः पारितः आसीत्। तेनोक्तं यत् मलयालम् भाषायां राज्यस्य नाम केरलमिति अस्ति, यदा तु संविधाने एतत् केरल इति लिखितम् आसीत्। राज्यसभया राष्ट्रिय सहकारिता विकास निगम संशोधन विधेयकमपि पारितम्। सहकारिता राज्यमन्त्री मुरलीधर मोहोल इत्यनेन उपस्थापितं विधेयकं निगमस्य गतिविधीन् औद्योगिक पण्येषु अपि विस्तारयितुम् अनुमतिं ददाति। उभे अपि विधेयके नीट विप्रतिपत्तिमधिकृत्य विपक्षस्य कोलाहल मध्ये चर्चां विनैव पारिते। कार्यसमाप्त्यनन्तरं लोकसभा श्वः यावत् स्थगिता अभवत्। झारखण्डराज्ये छात्रान् विरुध्य आरक्षकाणां बलप्रयोग प्रकरणे अद्य एनडीए संयुतेः सांसदाः संसद परिसरे पथसञ्चलनम् अकुर्वन्। सांसदाः करेषु फलकानि धृतवन्तः, येषु आरोपः आसीत् यत् सर्वकारस्य आश्वासनानन्तरमपि विपक्षः चर्चां परिहरति। पथसञ्चलनमिदं मंगलमिलन इति एनडीए संसदीय दलस्य उपवेशनात् परम् अभवत्। केन्द्रीय मन्त्री अनुप्रिया पटेलः विपक्षं संसद कार्याचरणे बाधाम् उत्पादयितुम् आरोपितवती। वार्ताहरैः सह सम्भाषमाणा सा प्रावोचत् यत् विपक्षस्य याचनाः स्वीकृताः, तथापि विपक्षीयदलानि चर्चायै तत्पराणि नैव सन्ति।
पेपर लीक को लेकर भी जो तमाम बातें हुई, सरकार ने हर मांग को स्वीकार किया, एक नया कड़ा कानून बनाया। गृह मंत्री जी के वक्तव्य को लेकर लगातार ये मांग करते रहे हैं और हमारी सरकार ने स्पष्ट किया है। माननीय गृह मंत्री जी सदन के अंदर अपने चर्चा भी करना चाहते हैं, अपनी बात भी रखना चाहते हैं, लेकिन ये सुनने के लिए तैयार नहीं है, चर्चा में भाग लेने के लिए तैयार नहीं है। इनका एक ही मकसद है कि सदन को बाधित करना है।
सर्वकारेण उक्तं यत् भारतीय ऋतु विज्ञानेन सह घनिष्ठ समन्वयेन प्रवर्धमानायाः प्रवृद्धस्थितेः तथा कृषौ एल नीनो प्रभावस्य संभाव्य दुष्परिणामानां निरन्तरं निरीक्षणं क्रियते। कृषक तथा कृषि कल्याण राज्य मंत्री रामनाथ ठाकुरः अद्य लोकसभायां कस्यचित् प्रश्नस्य लिखित उत्तरे एतां सूचनां प्रादात्। तेन संसूचितं यत् येषु द्विचत्वारिंशतोत्तर त्रिंशत जनपदेषु सामान्यतः अल्पवृष्टिः सम्भाव्यते तेषां राज्यानां कृते जनपद कृषि आकस्मिक योजनाः अद्यतनीकृताः सन्ति। मन्त्रिणा प्राबोधि यत् विभिन्न राज्येभ्यः द्विसप्तत्यधिकैक शतलक्षाधिक क्विंटल मित बीजानां याचनायाः प्रत्युत्तरे पर्याप्तमात्रायां बीजानां सम्पूर्तिः सुनिश्चिता। श्री ठाकुरेण ज्ञापितं यत् केन्द्रीय जलायोगः राज्य प्रशासनानि च जलाशयानां सर्वोत्तमाय उपयोगाय तथैव दक्ष सेचन विधीनां उत्कर्षाय पूर्वयोजनाः रचयितुं उपदिष्टाः। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जयसवालः नवदिल्ल्याम् अवदत् यत् अरुणाचलप्रदेशः भारतस्य अविभाज्यम् अभिन्नं च अंगमस्ति। एतत् शाश्वत सत्यं केनापि परिवर्तयितुं न शक्यते। तेनोक्तं यत् चीनदेशेन सह सीमा विवादेषु भारतम् अहोरात्रम् एतान् विषयान् अतिगम्भीरतया पश्यति। तत्र च शान्तेः स्थिरतायाः च स्थापनं राष्ट्रस्य प्राथमिकम् उद्देश्यमस्ति। अत्रावसरे जयसवालः असूचयत् यत् भारतेन द्विपक्षीयवार्तायै अथ च दिल्ल्याम् आयोज्यमानस्य ब्रिक्स आउटरीच सत्रस्य कृते बंगालदेशस्य प्रधानमन्त्रिणे तारिक रहमान महोदयाय औपचारिकं निमन्त्रणं प्रेषितम्। ह्यः बांग्लादेशे भारतीय उच्चायुक्तः तेन सह शिष्टाचार मेलनम् अकरोत् यत्र उभयोः देशयोः परस्परहितविषयेषु विमर्शो जातः। पाक अधिकृत जम्मू कश्मीरे पाकिस्तानी अत्याचारस्य विरोधे अगस्तमासस्य त्रयोदश दिनांकतः वैश्विकाः प्रतिरोधाः भविष्यन्ति। अवामी एक्शन कमिटी संगठनेन अगस्तमासस्य चतुर्दश दिनांकः कृष्णदिवसत्वेन उद्घोषितः। षष्ट्यधिक जनानां हत्यां सहैव पञ्चशतोप्यधिक जनानां आघातमधिकृत्य पाकिस्तानी दूतावासानां पुरतः प्रदर्शनस्य योजना अस्ति। नासा संस्थया चन्द्राधार कार्यक्रमे इसरो संस्था सहभागी भवितुम् आमन्त्रिता। बेंगलुरुनगरे भारत अमेरिका अन्तरिक्ष कार्यदलस्य नवम्यां गोष्ठ्याम् इसरो अध्यक्षः डॉ वी नारायणन तथा अमेरिकीय राजदूतः सर्गियो गोरः भागम् अगृह्णीताम्। अवसरे निसारभियानस्य सफलतायाः अनन्तरम् आगामी मानव अन्तरिक्ष प्रौद्योगिकीषु परस्पर सहयोगस्य विस्तारः स्वीकृतः। ऋतुविज्ञान विभागेन आगामिषु द्वित्रिदिवसेष् ओडिशा राज्ये वज्रपात मेघगर्जनाभ्यां सह अतीव तीव्र वृष्ट्यै नारंगवर्णीया संचेतना प्रख्यापिता। विभागेन तावत् आगामिदिनद्वयोः अण्डमान निकोबार द्वीपसमूहे अरुणाचलप्रदेशे असमे मेघालये नागालैण्ड मणिपुर मिजोरम त्रिपुरा राजस्थानेष् च वज्रपात मेघगर्जनाभ्यां सह अतितीव्रतर वृष्टिः भविष्यतीत्यपि अनुमानितम्। कनाडा ओपन टेनिस प्रतियोगितायां पोलैंड देशस्य पूर्व विश्व प्रथम वरीया ईगा स्वीटेक रशिया देशस्य डायना श्नाइडर इत्येताम् 6-2, 6-1 इति अंकैः केवलं चतुष्षष्टि निमेषेष् पराजित्य उपान्त्यचक्रं प्राविशत्। इति वार्ताः।